अथ तृतीयः सर्गः। हिमांशोरत्रिपुत्रस्य बुधो नाम सुतो भवत्। पुरूरवा महाराजस्तस्य पुत्रो व्यजायत। तस्यायुरभवत्पुत्रो नहुषस्तस्य नन्दनः। ययातिरभवत्तस्य नन्दनो बलवीर्यवान्। देवयानीम् च शर्मिष्ठाम् सौवाह प्रिये उभे। प्रथमोशनसः पुत्री द्वितीयारुषपर्वणः। यदुम् चतुर्वसुम् चैव देवयान्यामजीजनत्। द्रुह्युम् चानुम् च पूरुम् च शर्मिष्ठायामजीजनत्। यदोर्वंशे तु राजानः कार्तवीर्यपुरोगमाः। बभूवुर्भगवद्भक्ताः तपोज्ञानपरायणाः। पुरोर्वंशे तु राजान आसन् दोष्यन्ति पूर्वकाः। तेषाम् कीर्त्या च विक्रान्त्या समस्ताः पूरिता दिशः। भूभारहरणेपेक्षाः तस्मिन् काले दिवौकसः। दुग्धाब्धिशायिनम् देवम् उपेत्य शरणम् ययुः। विप्रक्षत्रादिभावेन तदादिष्टाः सुरादयः। बभूवुर्भुवि तत्सेवाम् विधित्सन्तः समस्तशः। वरुणश्शन्तनुर्नाम पुरोर्वंशे व्यजायत। विचित्रवीर्यस्तस्यासीत् पुत्रश्चित्राङ्गदानुजः। धृतराष्ट्रश्च पाण्डुश्च तस्य पुत्रौ बभूवतुः। पाण्डोः कुन्ती च माद्री च द्वे भार्ये धर्मकोविदे। सपाण्डुर्मुनिशापेन स्त्रीसङ्गमसुखम् जहौ। भर्त्राज्ञया सुतम् कुन्ती धर्माल्लेभे युधिष्ठिरम्। धृतराष्ट्रस्य गान्धार्याम् आसन् दुर्योधनादयः। वधाय मारुतस्तेषाम् भीमम् कुन्त्यामजीजनत्। सालेभे वासवार्जिष्णुम् यमौ माद्री च दस्रयोः। वने वर्धन्त वत्सास्ते पाण्डुना परिरक्षिताः। एवम् पाञ्चालबाह्लीका अवर्धन्त महाबलाः। आहुकाद्यादवादुग्र सेनोभूद्देवकस्थता। देवकस्य सुता जज्ञे देवकी देवसम्मता। वसुदेव उवाहैनाम् यादवशूरनन्दनः। तत्र प्रादुरभूद्देवः परमात्मा सनातनः। दम्पत्योरनयोराशाः पूरयन् सुरकार्यवान्। वसुदेवस्य रोहिण्याम् ततः पूर्वमजायत। अनन्तो बलवत्त्वेन बलभद्र इति श्रुतः। ज्ञानानन्दतनुम् श्यामम् शङ्खचक्रगदाधरम्। व्यक्तमात्रम् हरिम् दृष्ट्वा तुष्टा वानकदुन्दुभिः। स्वाज्ञया सौव्रजम् नीतः कंसाद्भीतेन शौरिणा। शिशुरूपो यशोदायाः शायितः शयने शनैः। चण्डिकाम् तत्क्षणोद्भूताम् नीत्वा यादवनन्दनः। देवक्या शयनेऽन्यस्य पूर्ववद्बन्धमाययौ। ताम् कन्याम् कंस आनीय निहन्तुमुपचक्रमे। मृत्युस्ते जात इत्युक्त्वा सोत्पपातनभस्थलम्। जातमात्रान् कुमारान् स निहन्तुम् जनमादिशत्। हिंसाविहारा दुष्टास्ते निजघ्नुर्भुवि भालकान् जगाम गोकुलं दुष्टा धात्री कंसस्य पूतना कृष्णमादत्त साहन्तुम् ताम् जघान रमापतिः शायितः शकटस्यादः शकटाक्षम् जघानसः अमीमरतृणावर्तम् तेनोन्नीतः सलीलया गर्गोऽथ शौरिणादिष्टः चकार क्षत्रियोचितान् संस्कारान्नाम चामुष्य सबलस्य व्रजम् गतः प्राङ्गणे रिङ्खणम् कुर्वन् अर्भकैः सह माधवः लीलाभिर्भावगर्भाभिः जनमानन्दयन् बभौ जघासमृत्तिकाम् देवः कदाचिल्लीलया हरिः मात्रोपलब्ध आस्ये स्वे व्याप्ते विश्वमदर्शयत् दध्यमत्रम् विभज्येशः कदाचिच्चन्द्रसन्निभम् नवनीतम् समादाय रहो गत्वा जघास च जनन्योलूखले बद्धः सोऽर्जुनावुदमूलयत् नलकूबरमणिग्रीवौ मोचयामास शापतः वृन्दावनम् ययासुः सन् नन्दसूनुर्बृहद्वने ससर्ज रोमकूपेभ्यो रुकान् व्याघ्रसमान् बले तत्रोत्पातभिया गोपा आपुर्वृन्दावनम् वनम् सपालयन् गोपकबालरुन्दैः बलेन साकम् पशुवत्सयूथान् निहत्य वत्सासुरमादिदेवो बकम् च गोपालकतामवाप इति मणिमञ्जर्याम् तृतीयः सर्गः।